यत्पदश्चतुष्पदकस्मै ये देवाय हविषा विधेम। ततम् तद्विप्राशो विपन्यवो विष्णोर्यत्परमं पदम्